यस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दहालः। वृष्ट्या सहैव हिमपातानन्तरं सुदूरपश्चिम कर्णाली गण्डकी प्रदेशानां हिमालयेषु उच्च पर्वतीयेषु च भूभागेषु जनजीवनं प्रभावितमस्ति। बाजुरा जनपदस्य ऐतिहासिक पर्यटकीय पोखरखेगडी प्रवृत्तिषु बाजुरा जनपदस्य उच्च पर्वतीय क्षेत्रेषु अस्मिन्नेव वर्षे पञ्चमवारं हिमपातः सम्भूतोऽस्ति। गत बृहस्पतिवासरात् सञ्जातस्य हिमपातस्य कारणेन बाजुरा जनपदस्य उच्च पर्वतीयेषु क्षेत्रेषु स्थिताः हिमालयाः श्वेताः सम्भूताः वर्तन्ते। हिमपातेन जनजीवनं प्रभावितं सदपि शीतकालिकं कृषिकर्म समीचीनं भविष्यतीति उक्त्वा कृषकाः प्रसन्नाः सन्तीति अस्माकं संवाददातारो ज्ञापयन्ति। एवमेव वृष्टेः पश्चात् हिमपातानन्तरं नाग्म गमगढ़ी मार्ग अवरुद्धोऽस्ति। तथैव गोर्खा जनपदस्य चुमनोब्री ग्रामपालिकायाः प्रथम वडा क्षेत्रस्य सामदो क्षेत्रे दिवसत्रयात् हिमपातः जायमानोऽस्ति। सामदो स्थानात् लार्के पासस्थलं चीनदेशस्य रुइला सीमाप्रवेश बिन्दुश्च गन्तुं शक्येते। सम्प्रति लार्केपास क्षेत्रस्य भ्रमणाय आगताः पर्यटकाः सामदास्थाने अवरुद्धाः सन्ति। अत्रान्तरे कतिभ्यश्चित् दिनेभ्यः देशस्य विभिन्नेषु भागेषु जायमाना वृष्टि अद्यतः अवरुध्यते इति जलवायु वातावरण विभागेन ज्ञापितमस्ति। अद्यतः आराष्ट्रं वातावरणं स्वच्छं भूत्वा सूर्यप्रकाशः प्रसरतीति जलवायुविद् शान्तिकर्णेलः ज्ञापयति। एतस्याः अनुसारेण पश्चिम न्यूनचापीय प्रणाल्याः प्रभावेण जायमाना वृष्टि अधुनापि कोशी प्रदेशस्य कतिसूचित स्थानेषु विद्यमानास्ति। अद्य कुत्रापि वृष्टेः प्रणाल्याः विकसनस्य अवस्था दृष्टा नास्ति इति विभागेन ज्ञापितं वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति देशस्य जनतायाश्च कृते बहूनि कार्याणि करणीयानि सन्तीति संकल्पेन राष्ट्रनिर्माणस्य महाभियाने संलग्नाः भवनीयाः। पोखरा महानगरपालिकायाः अष्टादशवडा क्षेत्रस्य सराङ्कोटस्थाने आयोजितस्य श्रीमद् भागवत ज्ञान महायज्ञस्य एतद् विक्रम वर्षीयस्य धार्मिक पर्यटन महोत्सवस्य सराङ्कोट धाम देवालयस्य च उद्घाटन कार्यक्रमं पूर्वेद्यो सम्बोधयन् राष्ट्रपति पौडेलः युवजनशक्तिनां विदेश पलायनात् देशं रक्षितुं सम्बद्धैः सर्वैः पक्षैरे गभीरैर्भाव्यमित्यत्र बलं प्रादात्। राष्ट्रपति पौडेलः कृषि जलस्रोत पर्यटनोद्योगानां विकासं कृत्वा उत्पादनं वर्धयित्वा च स्वदेशीयार्थतन्त्रं सबलं विधातुं बलं प्रादात्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति सर्वकारेण संसदि प्रस्तुताः अध्यादेशाः पारितीकरिष्यन्ते। हिमालय नेत्र चिकित्सालयस्य वार्षिकोत्सवस्य अवसरे ह्य पोखरायाम् आयोजिते कार्यक्रमे संचार मन्त्री गुरूङ सुशासनं स्थापयितुं सार्वजनिक सेवां प्रभावकारिणीं विधातुं च सर्वकारेण अध्यादेशाः आनीताः सन्तीत्यतः अध्यादेशाः पारितीकरणीयाः इति अवोचत। संचार मन्त्री गुरूङ संसदि विद्यधिनियमानां निर्माणाय अधिकः समयः अपेक्षते इत्यतः सर्वकारेण स्वाधिकारस्य प्रयोगेण अध्यादेशाः आनीताः सन्तीति अगदत्। मन्त्री गुरूङ सामाजिक सञ्जाल विधेयकेन संचार स्वातन्त्र्ये कापि क्षतिर्न भविष्यति, केवलं उच्छृङ्खलतायाः नियमनं विधास्यते इति च समस्पष्टयत्। जनता समाजवादी पार्टी नाम्नो जसपा दल नेपालस्य केन्द्रीय समितेः उपवेश अद्यतः प्रारम्भमाणो वर्तते। ललितपुरे अद्य आयोज्यमाने उपवेशे वर्तमान राजनैतिक परिस्थितेः दलस्य संघटनात्मक कार्ययोजनायाश्च विषयेषु विमृक्ष्यते इति दलस्य प्रचार प्रसार प्रकाशन विभागस्य प्रमुख पूर्ण बस्नेत असूचयत। एवमेव उपवेशे गत भाद्रमासात् दलेन संचालितस्य जनत्वया सह जसपा नेपाल दलमिति आधारभूत संगठन निर्माणस्य अभियानस्य समीक्षा भविष्यति। पालिका समितिनां दायित्वे परिचालितानाम् अभियन्तृणां स्वस्व कार्यक्षेत्रे जातानां कार्याणां प्रगति विवरणस्य च प्रस्तुतेः कार्यक्रमश्च वर्तते इति दलेन ज्ञापितमस्ति। इस्लाम धर्मावलम्बिनाम रमजन पर्व अद्यतः प्रारम्भमाणं वर्तते। मासावधि सञ्चल्यमाने पर्वणि अस्मिन् इस्लाम धर्मावलम्बिनो जना दिने निराहारम् उषित्वा प्रार्थनां कुर्वन्ति, सायं नमाजं श्रुत्वा भोजनादिकं कुर्वन्तीति च परम्परा वर्तते। शरीरं शुद्धं स्थापयित्वा उपवासे स्थेयः इति मान्यतायं सत्यमपि बालबालिकानां रोगणां गभीररोगयुतानां गर्भवतीनां महिलानां च कृते उपवासस्य अनिवार्यता न भवति। उर्दू पञ्चाङ्गस्य अनुसारेण हिजरी संवत्सरस्य रमजान मास नवमो मास वर्तते। रमजान मासे मुस्लिम धर्मावलम्बिनां सर्वाधिक महत्वस्य कुरान ग्रन्थस्य अवतरणं सम्भूतमस्ति। मासेस्मिन् अल्लाहस्य कृतज्ञता प्राप्यते इति तद्धर्मिणो जना विश्वसन्ति। व्रतस्य आचरणाय अद्य सायं इस्लाम धर्मावलम्बिनो जना चन्द्रम पश्यन्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमला दाहाल प्रचण्ड जनताया बलिदानेन प्राप्तस्य संविधानस्य संशोधनस्य नाम्नि पूर्ववत् व्यवस्थाया स्थापनायै कार्यं विधीयमानम् अस्ति इति आरोपयति। जनतया सह माओवादी दलमिति समाघोषेण संचालितस्य तराई मधेस केन्द्रितस्य जनजागरणाभियानस्य अन्तर्गतम् ह्यः सिराहा जनपदस्य मुख्यालये आयोजितायां जनसभायाम् अध्यक्षः प्रचण्ड विगतकालिका त्रुटिः संशोध्य मधेसी जनतया सह गभीरं सम्बन्धं स्थापयितुम् अभियानमेतद् सञ्चाल्यमानमस्ति इति उदैरयत्। काष्ठमण्डप महानगरपालिकया सार्वजनिक स्थले अवकर पातनस्य कार्यं कुर्वद्भ्यः जनेभ्यः पञ्चसहस्रेभ्यः पञ्चदश सहस्राणि यावद् दण्डस्वरूपेण गृह्यन्ते। काष्ठमण्डप महानगरपालिकायाः वातावरण विभागस्य अनुसारेण महानगरस्य अभ्यन्तरस्य गृहेषु परिसरेषु वा विद्यमानस्य अवकरस्य सार्वजनिक स्थलेषु स्थापकेभ्यः एकी कारकेभ्यः क्षेपकेभ्यश्च जनेभ्यः पञ्चसहस्रेभ्यः पञ्चदशसहस्राणि यावत् रूप्यकाणि दण्डस्वरूपेण ग्रहीष्यन्ते। अत्रान्तरे काष्ठमण्डप महानगरपालिकया अवकर व्यवस्थापनस्य कार्यम् अतिरिक्तं प्रभावकारी सम्पादयितुं द्वात्रिंशतिवडा क्षेत्रेषु षड् क्षेत्राणि निश्चित्य कार्यं करिष्यते इति विभागेन ज्ञापितमस्ति। सम्प्रति काष्ठमण्डप उपत्यकायाः अष्टादश स्थानीय स्तरेभ्यः प्रतिदिनं सहस्रं षड्शतं च मेट्रिक टन परिमितम् अवकरः संकल्यमानो वर्तते। एतावतः अवकरस्य व्यवस्थापनं वंसरे डाँडा स्थाने विद्यमानं चास्ति। गृहमन्त्री रमेश लेखक मादकौषध मुक्तस्य समाजस्य निर्माणाय मादकौषध विरोधी महाभियानं देशव्यापी रूपेण सञ्चालयितुं बलं ददाति। काष्ठमण्डप उपत्यका प्रहरी कार्यालयेन ह्य आयोजिते मादकौषध विरुद्धस्य महाभियानस्य उद्घाटन समारोहे गृहमन्त्री लेखक मादकौषध सेविनो जना परिवारेण सह समाजस्यैव कृते घातका भविष्यन्तीति अवोचत। तदवसरे गृहमन्त्री लेखक महाभियानमेतद् विद्यालयस्तरं यावत् प्रापयितुम् आवश्यकता अस्तीति बलं प्रादात्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी विधेयक काठिन्यम् अपाकर्तुम् तदर्थं प्रतिकूल विधिन् परिवर्तितुञ्च अध्यादेशः आनीतो स्थिति स्पष्टीकरोति। सिन्धुलीमाडी स्थाने ह्य आयोजिते कार्यक्रमे मन्त्री अधिकारी भूमिहीनानां दलितानां अव्यवस्थितावासानां च जनानां व्यवस्थापनस्य पक्षे सर्वकारः अस्तीत्यतः भूमे प्रमाणपत्रस्य अप्रापकेभ्यः जनेभ्यः भूमे प्रमाणपत्रस्य प्रदानस्य कार्यं जायमानमस्तीति असूचयत। भूमेः प्रमाणपत्रस्य प्रदानस्य समागोषः कस्यापि दलस्य नैर्वाचनिक समागोषो न भवितुं शक्नोतीति भाषमाणः मन्त्री अधिकारी वर्तमान सर्वकारम् आयोगं च प्रति उत्थापितस्य भ्रमस्य प्रतिकरणस्य कार्यं कर्तुं सर्वान् अन्वरुणत् इति समाचाराः।